अथ ब्रह्मसूत्राणुभाष्यम् प्रथमोऽध्यायः। नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितं ज्ञेयं गम्यं गुरुंश्चापि नत्वा सूत्रार्थ उच्यते। विष्णुरेव विजिज्ञास्य सर्वकर्तागमोदितः समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरःखवत् प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः सर्वगोत्तानियन्ता च दृश्यत्वाद्युज्झितः सदा विश्वजीवान्तरत्वाद्यैर्लिङ्गैः सर्वैर्युतः स हि सर्वाश्रयः पूर्णगुणः सोऽक्षरः संहृदब्जगः सूर्यादिभासकः प्राणप्रेरको दैवतैरपि ज्ञेयो न वेदैः शूद्राद्यैः कम्पकोऽन्यश्च जीवतः पतित्वादिगुणैर्युक्तस्तदन्यत्र च वाचकैः मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः अव्यक्तः कर्मवाक्यैश्च वाच्य एको मितात्मकः अवान्तरं कारणं च प्रकृतिशून्यमेव च इत्याद्यन्यत्र नियतैरपि मुख्यतयोदितः शब्दैरतोऽनन्तगुणो यच्छब्दायोगवृत्तयः। इति ब्रह्मसूत्राणुभाष्ये प्रथमोऽध्यायः।